श्रीगणेशाय नमः। अस्य श्रीलक्ष्मीनृसिंहद्वादशनामस्तोत्रमन्त्रस्य पुरन्दरऋषिः अनुष्ठुप् छन्दः श्रीलक्ष्मीनृसिंहो देवता श्रीलक्ष्मीनृसिंहप्रीत्यर्थम् द्वादशनामस्तोत्रमन्त्रजपे विनियोगः। अथ ध्यानम्। प्रथमं तु महाज्वालं द्वितीयं तूग्रकेसरिः वज्रनखस्तृतीयञ्च चतुर्थं तु विदारणः सिंहास्यः पञ्चमं चैव षष्ठं काश्यपमर्दनः सप्तमं रिपुहन्ता च अष्टमं देववल्लभः प्रह्लादराजो नवमं दशमं नन्दहस्तकः एकादशं महारुद्रो द्वादशं करुणानिधिः एतानि द्वादश नामानि नृसिंहस्य महात्मनः मन्त्रराजेति विख्यातं महापापहरं शिवम्। क्षयापस्मारकुष्ठादि तापज्वरनिवारणं राजद्वारे तथा मार्गे सङ्ग्रामे रिपुसङ्कटे गिरिगौहरकेरण्ये व्याघ्रचोरभयोरगे आवर्तनसहस्रेण लभते वाञ्छितं फलम् आवर्तनसहस्रेण लभते वाञ्छितं फलम्। इति श्रीलक्ष्मीनृसिंह द्वादशनामस्तोत्रं सम्पूर्णम्। श्रीलक्ष्मीनृसिंहार्पणमस्तु।